इयम् आकाशवाणी। इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः दिव्यानन्द झाः। जम्मू कश्मीर हरियाणा राज्ययोः विधानसभा निर्वाचनाय प्रचाराभियानं सजवं प्रवर्तते। प्रधानमन्त्री नरेन्द्र मोदी ह्यः जम्मू कश्मीरस्य डोडा क्षेत्रे एकां नैर्वाचनिक जनसभां सम्बोधितवान्। तत्र असौ विपक्षिदलानि आलोचयन् उक्तवान् यत् जम्मू कश्मीरम् अधुना विकासस्य नवीनां गाथां लिखति। श्रीमोदी अवदत् यत् निर्वाचनमिदं जम्मू कश्मीरस्य भाग्य निर्धारणं करिष्यति, अपि च एकस्य सुरक्षित क्षेत्रस्य अपि निर्माणं करिष्यति। जम्मू कश्मीरे विधानसभा निर्वाचनस्य प्रथम चरणाय चतुर्विंशति विधानसभासनेभ्यः मतदानं अस्य मासस्य अष्टादश दिनांके भविष्यति। अपरतः हरियाणा प्रदेशे एकस्मिन् एव चरणे विधानसभा निर्वाचनाय प्रचाराभियानं सजवं प्रवर्तते। अस्मिन् प्रदेशे नवत्यासनेषु विधानसभा निर्वाचनाय मतदानं अक्टोबर मासस्य पञ्चमे दिनांके भविष्यति। अत्र प्रसंगे प्रधानमन्त्रिणा गतवासरे कुरुक्षेत्रे नैर्वाचनिकी जनसभैका सम्बोधिता। तेन उक्तं यत् भारतं विकसितं राष्ट्रं विधातुं हरियाणा प्रदेशस्य विकासः अतितरां महत्वपूर्णः वर्तते। प्रधानमन्त्रिणा उक्तं यत् प्रशासनं निर्धन महिला कृषक यूनः शक्तान् कुर्वत् अस्ति। सूचना प्रसारण मन्त्रालयेन युवचलच्चित्र निर्मातृणां कृते चतुर्विंशत्यधिक द्विसहस्रतम वर्षस्य भारतीयान्ताराष्ट्रिय चलच्चित्र महोत्सवस्य अंगत्वेन बेस्ट डब्ल्यू इण्डियन फिल्म सेक्शन अर्थात श्रेष्ठ पदार्पण भारतीय चलच्चित्रानुभाग इति नामक नूतन प्रभाग प्रारब्ध। पञ्चपञ्चाशत्तम इफ्फी महोत्सव गोवानगरे नवम्बर मासस्य विंशति दिनांकत अष्टाविंशति दिनांक पर्यन्तं प्रचलिष्यति। नूतन प्रभागाय कृतानि चलचित्र चयनानि यूनां चलचित्र निर्मातृणां रचनात्मक दृष्टिम् अद्वितीय कथा कथन पद्धतिं च प्रकाशयिष्यन्ति। नूतन प्रतिभा मञ्चं प्रदास्यन्ति। उदीयमान निर्देशकानां कार्यं च प्रदर्शयिष्यन्ति। सर्वोत्तम प्रतार्पण भारतीय चलचित्र प्रभागे सर्वोत्तमानि आद्यानि पञ्च चलचित्राणि चेष्यन्ते, तेषां प्रदर्शनं च भविष्यति। नूतन प्रभागाय प्रविष्टयः अधुना उद्घाटिताः सन्ति। समापनतिथि सितम्बर मासस्य त्रयोविंशति दिनांकः वर्तते। केन्द्रेण पलाण्डोः निर्यात शुल्कं चत्वारिंशत् प्रतिशतात् अपचीय विंशति प्रतिशतमितम् अकरोत्। वाणिज्योद्योग मन्त्रालयेन उक्तं यत् उपभोक्तृभ्यः समुचित मूल्ये पलाण्डोः उपलब्धतां सुनिश्चेतुं प्रशासनं नूतन रणनीतिं स्वीकुर्वत् अस्ति। वर्धमानानाम् आवश्यकता आपूर्तिस्थितीनां मूल्य प्रवृत्तीनां च आधारेण पलाण्डोः लक्षितां स्थिरां च आपूर्तिं सुनिश्चेतुं राज्य सर्वकारैः सह सम्मिल्य कार्यं क्रियते। कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहानः अवदत् यत् निर्यात शुल्क विषयक निर्णयेन कृषकाः एतत्सम्बद्धानि अन्य क्षेत्राणि च लाभान्वितानि भविष्यन्ति। ध्यानास्पदमस्ति यत् अस्य मासस्य पञ्चमे दिनांके मोबाइल वैन इत्यत्र पञ्चत्रिंशत् रूप्यकाणां प्रति किलोग्राममितेन उचित मूल्येन पलाण्डोः विक्रयः आरब्धः। दिल्ली मुंबई चेन्नई नगरेषु विक्रयः समारब्धः। आगामिषु दिनेषु हैदराबाद बेंगलुरू कोलकातादिषु सर्वेषु राज्य राजधानीषु अपि पलाण्डोः विक्रयणं भविष्यति। कृषि राज्यमन्त्री रामनाथ ठाकुर उक्तवान् यत् भारतं खाद्य सुरक्षां पोषणं च विधाय विश्वस्य बृहत्तमं खाद्याधारितं सुरक्षा कार्यक्रमं कार्यान्वितं करोति। ह्यः ब्राजीलस्य क्यूबा नगरे G20 समवायस्य कृषिमन्त्रिणाम् उपवेशने श्री ठाकुरः एवम् अभ्यभाषत। प्रियः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य मध्याह्ने 1:30 वादनतः भविष्यति। भवन्तः सर्वे यथाकात्